इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। चतुर्णां राज्यानाम् एकस्य केन्द्रशासित प्रदेशस्य च नैर्वाचनिक मतगणनायै मञ्चः सज्जः अस्ति। निर्वाचनायोगेन पश्चिम बंगालस्य फाल्टा विधानसभा क्षेत्रस्य सर्वेषु 85+200 मतदान केन्द्रेषु पुनः मतदानस्य आदेशो प्रदत्तः। मतदानम् अस्मिन् मासे 21 दिनांके भविष्यति। दिल्ल्याः विवेक विहार क्षेत्रे महति अग्निप्रकोपे 9 जनाः मृताः। वर्तमानस्य पश्चिम एशिया द्वन्द्वस्य मध्ये अग्रिमे मासे तैल उत्पादनस्य लक्ष्याणि वर्धयितुं ओपेक प्लस देशाः सैद्धांतिक रूपेण सम्मताः जाताः। अद्य सम्पूर्णे विश्वस्मिन् विश्व पत्रकारिता स्वातन्त्र्य दिवसः आचर्यते। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य गुजरात टाइटन्स दलं पंजाब किंग्स दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। पश्चिम बंगाल, असम, तमिलनाडु, केरलम, पुदुच्चेरी विधानसभा निर्वाचनानां मतगणना श्वः प्रातः 8 समारप्स्यते। निर्वाचनायोगेन एतदर्थं सर्वाः सज्जताः कृताः। असमस्य 26+100 आसनेषु केरलम राज्यस्य 44+100 आसनानां, पुदुच्चेरी केन्द्रशासित प्रदेशस्य 30 च अप्रैल मासस्य 9 मतदानम् अभवत्। एवमेव तमिलनाडोः 34+200 सहैव पश्चिम बंगाले च प्रथमचरणाय 25+100 च अप्रैल मासस्य 23 मतदानम् अजायत। पश्चिम बंगाले मतदानं सुरक्षया दृढप्रबन्धेषु 77 मतगणना केन्द्रेषु सम्पत्स्यते। आयोगेन मतगणना केन्द्राणां परितः शान्ति व्यवस्थायाः सुचारु संचालनाय व्यापक प्रबन्धाः कृताः। अपरत्र असम राज्ये विधानसभायाः 26+100 आसनानां कृते 35 40 केन्द्रेषु दृढ सुरक्षा व्यवस्थायां मतगणना भविष्यति। राज्ये अप्रैल मासस्य 9 प्रायः 80% मतदानम् अभवत्। पुदुच्चेरी विधानसभा निर्वाचनस्य मतगणनायै सुरक्षायाः पर्यवेक्षणस्य च सुदृढाः प्रबन्धाः कृताः। पुदुच्चेरी राज्यस्य मुख्य निर्वाचनाधिकारी पी जवाहरः आकाशवाण्यै विज्ञापितवान् यत् पुदुच्चेरी क्षेत्रस्य सर्वेषां 30 विधानसभासनानां मतगणना करैक्कल यनम माहे नगरेषु सम्पत्स्यते। पश्चिम बंगालस्य दक्षिण 24 परगना जनपदस्य फाल्टा विधानसभा क्षेत्रस्य सर्वेषु 85+200 मतदान केन्द्रेषु मई मासस्य 21 पुनर्मतदानं भविष्यति। मतगणना मई मासस्य 24 सम्पत्स्यते। निर्वाचनायोगेन विज्ञापितं यत् अप्रैल मासस्य 31 सम्पन्नायां मतदान प्रक्रियायां लोकतान्त्रिक प्रक्रियायाः व्यापक उल्लङ्घनमालक्ष्य एषः निर्णयः स्वीकृतः। पर्यवेक्षकैः तावत् इलेक्ट्रॉनिक वोटिंग यन्त्रैः सह संकेतभङ्गः, मतदातृभ्यः भय प्रदर्शनं तथा मतदान नियमानाम् उल्लङ्घनम् इत्यादीनां गभीर त्रुटीनां सूचना प्रदत्ता। बहुषु केन्द्रेषु ईवीएम यन्त्राणां पिञ्जोपरि कृष्णपट्टिकाः योजिताः आसन्। अनधिकृत व्यक्तीनां मतदान केन्द्रेषु प्रवेशः तथा च अन्यजनैः मतदान करणम् इत्यादीनां घटनानामपि पुष्टिः कृताः। दिल्ल्याः विवेक विहार क्षेत्रे अद्य प्रातः 4 भवने भीषणाग्निकाण्डे 9 मृत्युमुपगताः। घटनायाः सूचनां प्राप्यैव 14 दमकलवाहनानि घटनास्थलं प्रति प्रेषितानि। अग्निशमनाधिकारिणः मुकेशवर्मणः वक्तव्यानुसारं प्रातः 25:00 अग्नौ पूर्णतया नियन्त्रणं जातम्। दिल्ल्याः उपराज्यपालः तरणजीतसिंहसन्धुः, एवं मुख्यमंत्री रेखा गुप्ता इत्येतौ घटनामालक्ष्य गभीरं शोकं प्रकटितवन्तौ। उपराज्यपालेन सामाजिक संजालीय माध्यमेषु मृतानां परिवाराय स्वकीयाः संवेदनाः प्रकटीकृताः। मुख्यमन्त्रिणा प्रोक्तं यत् दिल्ली सर्वकारः विपत्कालेऽस्मिन् प्रभावित परिवारैः सह वर्तते, सहैव सम्पूर्णस्थितेः निरन्तरं पर्यवेक्षणं जायमानमस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम एशिया क्षेत्रे जायमानस्य संघर्षस्य मध्ये ओपेक प्लस देशैः जून मासे तैलोत्पादनस्य लक्ष्यं वर्धयितुं सैद्धान्तिकरूपेण सहमतिः प्रकटिता। प्रतिवेदनानुसारं सप्त ओपेक प्लस देशाः आगामि मासे तैलोत्पादनस्य लक्ष्यं प्रतिदिनं प्रायः 88,000 वैरल परिमाणेन वर्धयितुं सहमताः सन्ति। भूराजनैतिक संकटस्य तथा ओपेक समूहात् संयुक्त अरब अमीरातस्य निर्वर्तनस्य मध्ये अयम् अनवरतं तृतीयः मासिक वृद्धिक्रमः अस्ति। अद्य विश्व प्रेस स्वातन्त्र्यदिवसः अस्ति। अयं दिवसः तावत् प्रेस स्वातन्त्र्यस्य समर्थनार्थं विकासार्थं सहैव विश्वस्मिन् प्रेस स्वातन्त्र्यस्य स्थितेः आकलनस्य अवसरं प्रयच्छति। अस्य वर्षस्य विषयः शान्तिपूर्ण भविष्यस्य निर्माणम् इति वर्तते। प्रधानमन्त्री नरेन्द्र मोदी अद्य अवदत् यत् गैलेक्स आई इत्यस्य मिशन दृष्टिः भारतस्य अन्तरिक्षयात्रायां महतोपलब्धिः अस्ति। विश्वस्य प्रथमस्य ऑप्टोसार इत्यस्य उपग्रहस्य, भारतस्य बृहत्तमस्य निजी निर्मितस्य उपग्रहस्य च सफल प्रक्षेपणम् नवकल्पनाय, राष्ट्रनिर्माणाय च यूनाम् उत्साहस्य प्रमाणमस्ति इति श्रीमोदिना सामाजिकान्तर्जालीये पटले उक्तम्। तेन गैलेक्स आई इत्यस्य संस्थापकेभ्यः सम्पूर्णदलाय च अभिनन्दितम्। केन्द्रीय संसदीय कार्यमन्त्री तथा वरिष्ठ भाजपा नेता किरेन रिजिजू इत्यनेन आरोपितं यत् सर्वाणि विपक्षिदलानि निरन्तरं शासकीय संस्थासु, निर्वाचनायोगे, ईवीएम यन्त्रेषु, प्रसारमाध्यमेषु च आक्षेपं कृत्वा सम्प्रति न्यायपालिकायां दोषारोपणं कुर्वन्ति। सामाजिक संजालीय माध्यमे स्वस्य सन्देशे श्री रिजिजू इत्यमुना उक्तं यत् एतानि दलानि एतत् नावगच्छन्ति यत् एतादृशानाम् आक्षेपाणां माध्यमेन ते वस्तुतः देशस्य लोकतन्त्रस्य मूल आत्मनि प्रहारं कुर्वन्ति। ईरान सर्वकारेण लेबनान देशं समेत्य सर्वस्तरेषु युद्ध समाप्तेः उद्देश्येन अमेरिका सर्वकाराय 14 योजना प्रस्तुता। ईरानस्य प्रस्तावानुसारं एतेषां विषयाणां समाधानं 30 अनन्तरं भवितव्यम्। अस्मिन् बलं प्रदत्तं यत् कूटनीतिक प्रयत्नेषु युद्धविरामस्य विस्तारः न भवेत्, अपितु युद्धस्य सम्पूर्ण समाप्तेः प्राथमिकता स्यात्। अमेरिकायाः राष्ट्रपतिना डोनाल्ड ट्रम्पेन अस्य प्रस्तावस्य विषये स्व असन्तोषः प्रकटीकृतः। तेन संचेतना प्रदत्ता यत् सैन्य विकल्पाः अधुनापि विचारपरिधौ उपस्थिताः सन्ति। भारत ऋतु विभागेन अद्य पूर्वोत्तर भारते केरलम् राज्ये, माहे प्रदेशे, पश्चिमबंगे, सिक्किमे, तमिलनाडु प्रदेशे, पुदुच्चेरी प्रदेशे च पृथक् पृथक् स्थानेषु प्रचण्डवृष्टेः पूर्वानुमानं प्रकटितम्। जम्मू कश्मीरे, लद्दाखे, छत्तीसगढ़े, तटीय आंध्रप्रदेशे च अद्य मेघवृष्टेः, विद्युत्स्खलनस्य च संभावना विद्यते। अद्य हरियाणायां, चंडीगढ़े, दिल्ल्यां, बिहारे, ओडिशायां, केरलम प्रदेशे, पंजाबे, मध्यप्रदेशे चापि तथैव स्थितेः संभावना वर्तते। विभागेन अद्य तटीय आंध्रप्रदेशस्य केषुचित् स्थानेषु उष्णतरंगस्य स्थितेः अनुमानं प्रकटितम्। आईपीएल क्रिकेट क्रीडायाम् आतिथेय गुजरात टाइटन्स दलम् अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे पंजाब किंग्स दलं सम्मुखीकरिष्यति। इति वार्ताः।